एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। सर्वकारस्य आगामिनः आर्थिक वर्षस्य कृते वार्षिक नीति कार्यक्रमाः संघीय संसदः सदनद्वयादेव बहुमतेन पारितीभूताः सन्ति। तत्पूर्वं प्रतिनिधिसभाया ह्यस्तनोपवेशे सर्वकारस्य वार्षिक नीति कार्यक्रमान् आधृत्य विहिते विमर्शने उत्थापितान् प्रश्नान् उत्तरयन् प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः नीति कार्यक्रमेषु सामाजिक न्यायस्य वृत्तिपार्जनानां सर्जनस्य विकासस्य च विषयेभ्य बलं प्रदत्तं वर्तते इति प्रावोचत। प्रधानमन्त्री प्रचण्डः सहकारी प्रकरणे संसदीयानुसन्धान समितेः संघटनस्य विषय सहमतेर्निकटं प्राप्तो स्थिति चर्चयन् निकट भविष्यति द्वित्रिदिनाभ्यामभ्यन्तरे एव दलेषु विषयेऽस्मिन् सहमतिर्भविष्यतीति विश्वासं व्यक्तवान्। सर्वकारस्य वार्षिक नीति कार्यक्रमान् आधृत्य सांसदेन चित्रबहादुर केसी इत्यनेन प्रेम सुबाल इत्यनेन च प्रस्तुतः संशोधन प्रस्तावः उपवेशस्य बहुमतेन अस्वीकृतो वर्तते। तत्पूर्वं सर्वकारस्य आगामिनः आर्थिक वर्षस्य नीति कार्यक्रमान् आधृत्य विहिते विमर्शने सांसदाः विष्णु पौडेलः, पूर्वार्थमन्त्री च जनार्दन शर्मा, स्वर्णिम वाग्ले, वीरेन्द्र प्रसाद महतो, चित्रबहादुर केसी च धारणां व्यक्तवन्तः। तत्पूर्वम् उपवेशस्य प्रारम्भणस्य अनुपदमेव प्रमुख प्रतिपक्षिणः नेपाली कांग्रेस दलस्य विरोधस्य मध्ये एव अर्थमन्त्रिणा वर्षमान पुन इत्यनेन आगामिनः आर्थिक वर्षस्य आर्थिक सर्वेक्षणस्य सार्वजनिक संस्थानानां च समीक्षा प्रतिवेदनं प्रस्तुतम् आसीत्। अर्थमन्त्री पुन राष्ट्रस्य समग्र आर्थिक परिसूचकांकेषु सुधारेण सह आगामिनि वर्षे देशस्य आर्थिक परिसूचकांका 10.99 अंकै वर्धनस्य अनुमानं विहितम् अस्तीति असूचयत्। स्वज्येष्ठस्य पञ्चदशे दिवसे दिवा एकवादने संघीय संसदः सदनद्वयस्य संयुक्तोपवेशे सर्वकारस्य आगामिनः आर्थिक वर्षस्य कृते अनुमानितम् आयव्ययकं प्रस्तोष्यते। प्रतिनिधिसभायाः अपरोपवेशः स्वज्येष्ठस्य पञ्चदशे दिवसे मंगलवासरे अपराह्नस्य चतुर्वादने वस्ता। राष्ट्रपतेः रामचन्द्र पौडेलस्य समक्षं महालेखा परीक्षकस्य 61वं वार्षिकं प्रतिवेदनं प्रस्तुतं वर्तते। राष्ट्रपतेः समक्षं महालेखा परीक्षकः तोयम राय शीतलनिवासवर्तिनी राष्ट्रपति भवने आयोजिते कार्यक्रमे प्रतिवेदनमेतत् प्रास्तौत। तदवसरे राष्ट्रपतिः पौडेलः महालेखा परीक्षकस्य कार्याणाम् उत्तरोत्तरवर्धनस्य सन्दर्भे सर्वकारीय सम्पदां सदुपयोग दुरुपयोगः हानिर्वा जायमानोऽस्ति न वेति विषये इतोऽपि गभीरतया परीक्षणं भविष्यतीति विश्वासम् अभिव्यनक। राष्ट्रपतिः पौडेलः प्रतिवेदने प्रस्तुतैः विषयैः सम्बद्धनिकायेषु आर्थिक कार्य विधिं वित्तीयोत्तरदायित्वं च प्रति सावधानी क्रियते इति विश्वासं व्यक्तवान्। प्रमुख प्रतिपक्षिणा नेपाली कांग्रेस दलस्य सभापतिना शेरबहादुर देउवा विधेन सह प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डेन मेलवार्ता विहितास्ति। बुढा नीलकण्ठ वर्तिनी देउवा निवासे ह्य सम्पन्ने मेलने एतयोर्मध्ये संसद गतिरोधस्य अन्ताय विमृष्टमिति नेपाली कांग्रेस दलस्य सहमहामन्त्री जीवन परियार अज्ञापयत। सहकारी वित्तापचलनस्य अनुसन्धानस्य विषये वार्ता सम्भूता सत्यपि निष्कर्षं न प्राप्तेति सहमहामन्त्री परियार असूचयत। विमर्शने प्रधानमन्त्री प्रचण्डः सहकारी प्रकरणे अनुसन्धान समितिं निर्मातुम् आत्मनः गभीरता स्थिति चर्चयन् अद्यपर्यन्तं सहमतिं धातुम् अन्वरुणात्। नेकपा एकीकृत समाजवादी दलेन प्रधानमन्त्रिणः पुष्पकमल दाहाल प्रचण्डस्य समक्षं संसद गतिरोधस्य अन्ताय ध्यानाकर्षणं विहितं वर्तते। दलाध्यक्षस्य माधव कुमार नेपालस्य प्रतिनिधिमण्डलेन ह्य बाल्वाटारा वर्तिनं प्रधानमन्त्री निवासं प्राप्य प्रधानमन्त्रिणे ध्यानाकर्षण पत्रं प्रदत्तं वर्तते। ध्यानाकर्षण पत्रे संसद गतिरोधस्य अन्ताय विमर्शनस्य सार्थकस्य संवादस्य च माध्यमेन प्रतिपक्षी दलं स्वस्थम विदाय अग्रे वर्धनीयम् नीति कार्यक्रमाणाम् आयव्ययकस्य च माध्यमेन जनतायाः समस्याः समाधातव्याः चेति विषयाः समाविष्टाः सन्ति। सहकारी प्रकरणे उपप्रधान गृहमन्त्रिणः रविलामी छाने विधस्य संलग्नतायाः विषये अनुसन्धातुं संसदीय समिते संघटनस्य याचनां कुर्वता संसदि आन्दोलनं विदधानेन च नेपाली कांग्रेस दलेन मार्गान्दोलनम् अपि प्रारब्धं वर्तते। प्रथमचरणे ह्य काष्ठमण्डपस्य ब्रिकुटी मण्डपे आयोजितां विरोधसभां सम्बोधयन् नेपाली कांग्रेस दलस्य महामन्त्री विश्वप्रकाश शर्मा राष्ट्रिय स्वतन्त्र दलेन विना वर्तमान सर्वकारस्य स्थिति अल्पमते भविष्यति इति कारणात् सर्वकाराय नैरन्तर्य प्रदानाय उपप्रधान गृहमन्त्रिणी लामिछाने इत्यस्मिन् अनुसन्धानाय सत्ता गठबन्धनं तत्परं नास्ति इति आरोपयत्। महामन्त्री शर्मा सहकारी सम्बद्धे विषये नेकपा एमाले दलस्य नेतारः कार्यकर्तारोऽपि संलग्नाः सन्तीति च हेतोः एमाले दलमपि समितेः संघटनाय तत्परं नास्तीति च आरोपयत्। संचार सूचना प्रविधि मन्त्री रेखा शर्मा शान्ति प्रक्रियायाः अवशिष्ट कार्याणि यथाशीघ्रं सम्बोधयितुं बलं ददाति। द्वाविंशस्य कृष्णसेन इच्छुक स्मृति दिवसस्य अवसरे ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे संचार मन्त्री शर्मा यथाशीघ्रं सत्यनिरूपण मेलायोगस्य माध्यमेन शान्ति प्रक्रियायाः अवशिष्ट कार्याणि पूरणीयानीति अगदत्। तदवसरे सत्यनिरूपणेन सह सम्बद्धं विधेयकं यथाशीघ्रं पारिति कर्तव्यमिति मन्त्री शर्मा धारणां व्यक्तवती। स्वास्थ्य जनसंख्या मन्त्रिणा प्रदीप यादवेन ह्य कान्तिबाल चिकित्सालयस्य आकस्मिकम् अनुगमनं विदाय सेवाग्राहिणां वेदनायाः सम्बोधनाय निर्दिष्टं वर्तते। उपचाराय चिकित्सालयं प्राप्तानां सेवाग्राहिणां वार्तायाः क्रमे सेवाग्राहिभिः मन्त्रिणा सह चिकित्सालये अवकरस्य व्यवस्थापने समस्या अस्ति, शौचालयः दुर्गन्धयुताः वर्तन्ते, आकस्मिककक्षेषु एकस्यामेव शय्यायां जनत्रयस्यापि उपचारः जायमानो वर्तते, औषधस्य ग्रहणाय दीर्घकालं यावत् प्रतीक्षणीयमस्ति, रक्तसंकलने विलम्बनस्य समस्या वर्तते, कर्मचारिणां व्यवहारे सुमधुरता नास्तीति च वेदनाः प्रकटिताः आसन। वातावरण पूर्वानुमान महाशाखया आगामिनी कतिसूचित दिनेषु तराई क्षेत्रस्य भूभागेषु अत्यधिकम् उष्णतायाः सम्भावनायाः विद्यमानत्वात् सावधानताम् अवलम्बितुम् अनुरुद्धमस्ति। महाशाखया ह्य उष्णैः दिवसैः उष्णेन वातवेगेन च सम्बद्धम् विशेषां सूचनां प्रकाश्य आगामि त्रिषु दिवसेषु उष्णस्य वातस्य उष्णवातलहर्याश्च सम्भावनास्ति इत्यतः ततः संरक्षणार्थम् आवश्यकपूर्वकार्येण सह सावधानताम् अवलम्बितुं सर्वे अनुरुद्धाः वर्तन्ते इति समाचारः।